नास्ति मात्रि समाछाया नास्ति मात्रि समागतिः नास्ति मात्रि समं त्राणं नास्ति मात्रि समाप्रपा। संस्कृत साप्ताहिक्यां मनोहर सुभाषित वचनादि रसास्वादन निरताः संस्कृत विषयिणी मतितरां प्रीतिमावहन्तः सर्वहितैषिणः जननी समुपासकाः मे श्रोतृवृन्दाः। संस्कृत साप्ताहिक्याः सद्यस्के अस्मिन् अवसरे आधुनिकैः पौराणिकैश्च विषयैः भवतां कर्णपटलमानन्दयितुमुपतिष्ठमाना अहं निधिझाः महनीयैः वाक्सुमनोभिः सुमनसां भवतां हृत्पूर्वकं स्वागतं निवेदयामि। उच्यते यत् मातृलाभे सनाथत्वमनाथत्वं विपर्यये, माता हि सर्वतीर्थमयी भवति। यथा माता बालस्य गतिं मतिं स्थितिं च परिवर्तयितुं क्षमाः भवन्ति, तथैव सुभाषितानि लोकस्य गतिं मतिं स्थितिं च परिवर्तयितुं क्षमानि सन्ति। तर्हि आगच्छन्तु रसमयेन सुभाषितामृतेन कार्यक्रमं प्रति प्रविशामः। तदिदम् अवधारयति ऋचा।
मूर्खस्य पञ्च चिह्नानि गर्वो दुर्वचनं तथा क्रोधश्च दृढवादश्च परवाक्येष्वनादरः। अर्थात मूर्खों के पांच लक्षण होते हैं, गर्व, अपशब्द, क्रोध, हट और दूसरों की बातों का अनादर।
धन्यवादाः भवत्यै। इदानीं प्रसंग प्रभागस्य अवसरो विद्यते, अतः सुमधुरैः शब्दवारिभिः लालित्य परिभूषित रागेण मातुः गुण संकीर्तनम् आचरति साधना शर्मा।
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु चेतनेत्यभिधीयते, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु निद्रारूपेण संस्थिता, नमस्तस्यै 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 नमो नमः।
भूरिशः धन्यवचांसि। मित्राणि, जगन्मण्डले प्रवर्तमानान् विषयान् शब्दनिचयैः सङ्कलय्य भवतां समक्षमुपस्थापयति सहयोगी अस्माकं पुनीत त्रिपाठी।
प्रधानमन्त्रिणा नरेन्द्रमोदिना आपरेशन सिन्दूर इत्यस्य प्रथमवार्षिकोत्सवम् आचरितम्। नवदिल्ल्यां प्रधानमन्त्री नरेन्द्रमोदी वियतनाम देशस्य राष्ट्रपतिना तो लाम इत्यमुना सह सम्भाषणं विहितवान्। भाजपेति दलेन पश्चिम बंगाल राज्ये 94-200 सदस्यीय राज्य विधानसभायां प्रचण्डं जनादेशं प्राप्य इतिहासः विरचितः। पश्चिम बंगस्य मुख्यमंत्री ममता बनर्जी मुख्यमंत्री पदात् स्वत्यागपत्र प्रदानाय निराकृतवती। असम राज्ये भाजपेति दलस्य नेतृत्वयुतं एनडीए प्रशासनम् अस्य मासस्य 12 दिनांके निरन्तरं तृतीयवारं शपथ वचनं ग्रहीष्यति। तमिलनाडु राज्ये अभिनेत्रीतः राजनेता रूपेण परिवर्तितः विजयस्य टीवीके इति दलेन बृहत्तम दलत्वेन उद्भूत्वा इतिहासं विरचितम्। बिहारस्य मुख्यमंत्री सम्राट चौधरी स्वमन्त्रिमण्डलस्य विस्तारं कृतवान्।
मित्रवरेण्याय साधुवादः। अयि मे मनोज्ञाः, सत्सङ्गतिः कथय किं न करोति पुंसामिति नीतिं स्मरन्तः वयं प्रतिकार्यक्रमं विदुषां सानिध्यं परिकल्प्यमानाः कञ्चित् अस्माकं मार्गदर्शकं महनीयं विपश्चितं निमन्त्रयामः। सन्दर्भेऽस्मिन् अस्माकं प्रार्थनाः उररीकृत्य समक्षमस्माकम् उपतिष्ठते आचार्यः पण्डितप्रवरः श्री आनन्दरेग्मी महाभागः। इमे विद्वांसः देवप्रयागे संस्कृतं सेवमानाः विद्यन्ते। एतैः सह सम्पर्कयितुमहं प्रार्थयामि सहयोगिनम् अस्माकं जतिनशर्मा महोदयम्।
नमः सर्वेभ्यः श्रोतृवृन्देभ्यः। अयि श्रोतारः, अद्यास्यां ज्ञान विज्ञान निदर्शिन्याम् अस्माकं प्रार्थनाम् उदरीकृत्य समक्षमस्माकं समुपतिष्ठते ज्योतिष विद्या विशारदाः आनंद रेग्मी महोदयाः। इमे विद्वांसः साम्प्रतं केन्द्रीय संस्कृत विश्वविद्यालयस्य देवप्रयाग परिसरे ज्योतिषस्य सहाचार्यत्वेन सुरभारतीं सेवमानाः वेविद्यन्ते। एते आचार्य कक्षायां स्वर्ण पदकेन चूडायिताः विलक्षण प्रज्ञा सम्पन्नाः सन्ति। मान्याः अत्रावसरे सर्वादौ आकाशवाणी पक्षतः अनंत वाग विच्छित्या भवद्भ्यः सनति ततिं स्वागत वचांसि पुरस्कुर्मः।
नमो नमः जतिन महोदय। सर्वेभ्यः श्रोतृभ्यः अपि सादरं नमस्कारः। आकाशवाणी पक्षतः यत् मे मनोहरं स्वागतं कृतं तदर्थम् अहं कृतज्ञताम् अनुभवामि। सहैव अहं जतिन महोदयं प्रति अपि कार्तज्ञं प्रकटयामि यैः अहम् अस्मिन् कार्यक्रमे आमन्त्रितः। ज्योतिषशास्त्रस्य विषये वार्तालापं कर्तुम् अहमपि अतीव उत्सुकः अस्मि।
मान्यवर, अस्मिन् आधुनिके युगे यदा जनाः केवलं भौतिकवादम् अङ्गीकुर्वन्ति तदा कथमस्माभिः ज्योतिषशास्त्रस्य वैज्ञानिकता प्रमाणयितुं शक्यते?
आम्, अस्मिन् भौतिकवादी युगे यदा वयं सर्वं वस्तुं प्रत्यक्षप्रमाणेन एव स्वीकुर्मः तदा ज्योतिषस्य वैज्ञानिकतायाः प्रतिपादनं कठिनं प्रतिभाति। परं नूनं विचारणीयं यत् किं ज्योतिषं केवलम् अन्धविश्वासः अस्ति? सर्वथा न। वयम् अत्र केवलं ग्रहाणां स्थितीनां स्थूलवर्णनं न कुर्मः, अपि तु ज्योतिषशास्त्रम् एकं प्राचीनं सुव्यवस्थितं च गणितीयविज्ञानम् अस्ति। यथा आधुनिकविज्ञानं वदति यद् ब्रह्माण्डे विद्यमानानां पिण्डानां परस्परं गुरुत्वाकर्षणशक्तिः भवति, तथैव अस्माकं ऋषयः सहस्रवर्षेभ्यः पूर्वमेव ज्ञातवन्तः यत् यत् पिण्डे तत् ब्रह्माण्डे इति न्यायेन वयम् एतत् प्रतिपादयेम यत् आकाशीयग्रहाणां रश्मयः अस्माकं जीवनस्य दशां दिशं च प्रभावितुं सक्षमाः सन्ति।
भवन्तः वस्तुतः फलितज्योतिषस्य विशेषज्ञाः, तर्हि कस्यचन सफलदैवज्ञस्य कृते सिद्धान्तफलितयोः कीदृशः समन्वयः आवश्यकः?
वस्तुतः अहं फलितज्योतिषस्य अध्यापकः अस्मि, परन्तु तत्र ज्योतिषस्य आधारस्तु सिद्धान्तैव अस्ति। यथा कस्यचित् विशालभवनस्य निर्माणाय दृढः आधारः आवश्यकः भवति, तथैव फलितस्य कृते अपि सिद्धान्तः आधारभूतः अस्ति। सिद्धान्तपक्षे वयं ग्रहाणां स्पष्टस्थितिं, तेषां गतिं, युतिं, वेदं च गणितेन पश्यामः, तथा फलितं च तस्य उपसंहारः अस्ति। गणितीयगणनानां साहाय्येन मानवानां जीवने कीदृशः प्रभावः भविष्यति इति कथनं फलितस्य कार्यम्। सफलदैवज्ञाय उभयोः सम्यक् ज्ञानम् अनिवार्यम् अस्ति। लोके दृश्यते यत् केचन जनाः केवलं गणितनिपुणाः भवन्ति, परं ते जनानां समस्यानां समाधानं कर्तुं न शक्नुवन्ति। एवं च अपरपक्षे केचन जनाः केवलं फलितशास्त्रे तत्र फलितशास्त्रे निपुणाः भवन्ति, परन्तु यदि तेषां गणितं शुद्धं नास्ति तर्हि तेषां फलितं निराधारं भवति। अतः आधुनिककाले यथा अस्माभिः पञ्चाङ्गस्य गणितीयशुद्धतायाः उपरि यथा ध्यानं दातव्यं, तथैव फलितशास्त्रे अपि देशकालपरिस्थिति अनुसारं फलितस्य विवेकपूर्णं प्रयोगमपि करणीयम् इति।
महोदय, साम्प्रतिके काले ज्योतिषस्य नाम्ना समाजे बहुविधाः अन्धविश्वासाः प्रसार्यन्ते, येन एतन्महच्छास्त्रं क्वचित् कलङ्कितो दृश्यते। अतः अस्य प्रतिकारः कथं सम्भवेत्? सहैव प्रामाणिकैः दैवज्ञैः कथं वर्तितव्यम्?
आम् जतिन महोदय, भवता सत्यमेव प्रोक्तम्। साम्प्रतिके काले अस्माकं समाजे येन प्रकारेण ज्योतिषशास्त्रं कलङ्कितं विधीयते, ज्योतिषविषये च मिथ्याभ्रान्तिः प्रसार्य अन्धविश्वासस्य जालं विस्तार्यते तत् खलु महत्याः चिन्तायाः विषयः। अस्य प्रतिकाराय अस्माकं सर्वेषां कर्तव्यमिदं वर्तते यत् वयं सामान्यजनमानसपर्यन्तं शास्त्रीयज्योतिषस्य सन्देशं प्रापयेम, यतोहि यदा तेषां सामान्यं ज्योतिषज्ञानं भविष्यति तदा समाजे प्रसरन्तम् अन्धविश्वासं दूरीकर्तुं वयं निश्चितरूपेण सहायकाः भविष्यामः। सहैव ज्योतिर्विद्भिः स्वकीय आचरणे व्यवहारे च परिष्कारः करणीयः। शास्त्रीयग्रन्थेषु प्रोक्तानां दैवज्ञलक्षणानां दैवज्ञगुणानां च पालनं कर्तव्यम्। अनेन प्रकारेणापि वयं समाजे ज्योतिषशास्त्रस्य संरक्षणं कर्तुं शक्नुमः।
साम्प्रतं भवन्तः यूट्यूब वाहिन्यामपि छात्रान् निःशुल्कं ज्योतिषग्रन्थान् पाठयन्ति। समाजसेवायाः एषा भावना कुतः आगता? सहैव संस्कृतच्छात्राणां कृते भवतां कः सन्देशः?
यदा अहं छात्रावस्थायाम् आसम् तदा अहं ज्ञानार्जनाय यूट्यूब वाहिन्यादिषु प्रमाणिकान् ज्योतिषग्रन्थान् अन्वेषयामि स्म, किन्तु ते केऽपि ग्रन्थाः मया न प्राप्ताः। तस्मिन्नेव दिने मया सङ्कल्पः कृतः यत् यदा अहं स्वजीवने कञ्चन उच्चपदं प्राप्स्यामि, ज्ञानदाने च समर्थः भविष्यामि, तदा एकं तादृशं मञ्चं सज्जीकरिष्यामि, येन छात्रेभ्यः निःशुल्कं शिक्षां प्रदास्यामि। अद्य अहं मम यूट्यूब वाहिन्या द ट्रेडिशनल अस्ट्रोलॉजर इत्यस्य माध्यमेन सर्वप्रथमं बृहद् अवकढाचक्रं ग्रन्थस्य अध्यापनं कारितवान्, यः ज्योतिषशास्त्रस्य आधारभूतः ग्रन्थः मन्यते। सम्प्रति अहं मुहूर्तचिन्तामणि ग्रन्थं पाठयामि, आगामिनि काले च लघुजातक जातकालङ्कार चमत्कारचिन्तामणि प्रभृतीनां ग्रन्थानाम् अपि निःशुल्कमाध्यमेन अध्यापनं तत्रैव कारयिष्यामि। एतेन प्रयासेन न केवलं संस्कृत अनुरागिणः छात्राः अपि तु संस्कृत पारम्परिकविषयेण नेट जीआरएफ परीक्षार्थिनः अपि लाभान्विताः भविष्यन्ति। एवम् अनेन समाजे व्याप्ताः भ्रान्तयः अपि दूरी भविष्यन्ति इति मम दृढविश्वासः अस्ति। सहैव संस्कृतछात्राणां कृते मम एषः सन्देशः अस्ति यत् भवन्तः ज्ञानार्जनं तु कुर्वन्तु, किन्तु कदापि तस्य ज्ञानस्य अहङ्कारं मा कुर्वन्तु। सर्वदा विनम्रतां धारयन्तु, स्वकीयं चरित्रं च उत्तमं रक्षन्तु, एवं मानसिकतनावं विना आनन्देन अध्ययनं कुर्वन्तु इति।
अतीव अल्पीयस्येव वयसि भवन्तः सुरभारती सेवायां दत्तचित्ताः सन्ति। भवद्भिः सह संवादः नूनमेव अस्माकं श्रोत्रीन् कृतार्थीकरिष्यति। अमूल्यमपि नैजं समयम् अस्मभ्यं नियोजितवद्भ्यः भवद्भ्यः वयं पुनरेकवारम् आकाशवाणी पक्षतः आधमर्ण्यं प्रकटयामः।
आकाशवाणीतः अस्मिन् कार्यक्रमे आमन्त्रणाय अहम् आकाशवाण्याः अन्तःकरणेन धन्यवादं करोमि। सहैव जतिनमहोदयस्यापि हार्दिकम् आभारं प्रकटयामि। प्रियश्रोतॄन् अपि सादरं प्रणामं निवेदयामि।
धन्यवादाः विपश्यते, धन्यधन्याः वयम्। यथा पूर्वम् इयं महापुरुषसन्निधिः अवश्यमेव अभ्युदयकारिणी भवति इति आशास्महे। कालोयं दिग्दर्शन विभागस्य विद्यते। भवादृशैः संस्कृत सेवकैः संस्कृत जनन्याः सर्वतो विकासाय विश्वमण्डले यत्र क्वचिदपि समायोजिताः समुदाहरणीयाः कार्यक्रमाः अत्र अनूद्यन्ते, यस्मात् समेषामपि गीर्वाणवाण्याः प्रसारे उत्साहः समेधते। तदिदं समाचरति मुदिता।
ग्लोबल संस्कृत फोरम इत्येतस्य उत्तर प्रदेश प्रान्तेन गुरुवासरे मे मासस्य अष्टमे दिनांके एक दिवसीया राष्ट्रिय अन्तर्जालीया संगोष्ठी आयोजिता। अस्याम् संगोष्ठ्याम् संस्कृत वाङ्मये वाचो युक्तीनाम् प्रयोगः इति विषये चर्चा अभवत्। केन्द्रीय संस्कृत विश्वविद्यालयस्य जयपुर परिसरे मे मासस्य द्वितीये दिनांके वार्षिकोत्सवः छात्रावासदिवसश्च आमानितं गतौ। अत्रावसरे सांस्कृतिक कार्यक्रमाः पुरस्कार वितरणं चापि अभवत्। छत्तीसगढ़स्य बिलासपुरस्थितेन पाणिनीय शोध संस्थानेन विगते शुक्रवासरे मे मासस्य प्रथमे दिनांके पौष्पी पाणिनी प्रक्रियायाः विश्व परिचयः विद्वत् सम्मानम् इति कार्यक्रमद्वयं समायोजितम्, यत्र पंडित राजोपाधिना प्रोफेसर ब्रज भूषण ओझा इत्येषः अथ प्रोफेसर विष्णुकांत पांडेयः सम्मानितौ जातौ। धन्यवादः।
अहो, आकर्ण्य संस्कृतं जगत् धन्यतां हि वयं गताः। नैकशः धन्यवादाः। मे सखायः, सुहृदयाः बालका अपि संस्कृतं श्रावं श्रावं धन्यत्वम् आप्नुयुः, येन निखिलमेव जगत् संस्कृतं सम्भवेदिति विचिन्त्य कार्यक्रमेऽस्मिन् अस्माभिः बालानां कृते विशेषतः कश्चित् प्रभागः प्रकल्पितो विद्यते। अतः प्रभागेऽस्मिन् बालकानां प्रियतमैः वचनैः स्वात्मानम् उपस्थापयति सुषमा कुमारी।
बालाः, अद्यस्तनीये बाल मनोवल्लरी संस्करणे अहम् साधु स्वभावः इत्यस्मिन् विषयम् आधृत्य एकां कथां श्रावयिष्यामि। एकस्मिन् उपवने स्थिताः आम्रवृक्षाः परस्परं वार्तालापं कुर्वन्तः आसन्, यत् मनुष्याः तेषां पक्वानि फलानि त्रोटयित्वा नयन्ति, परन्तु कृतज्ञतायाः एकम् अपि शब्दं तान् प्रति नैव कथयन्ति। अहो, तेषाम् इमां कृतघ्नतां धिक् धिक् वृक्षाणां समीपतः निस्सरन् कश्चित् पथिकः तेषाम् इमां वार्तां श्रुतवान्, किञ्चित् तत्र स्थित्वा च तान् अब्रवीत्, अस्मिन् भवद्भ्यः कृतज्ञतायाः प्रकाशनस्य का वार्ता? भवतां स्वभावः फलोत्पादनम्, तद्भवद्भिः क्रियते, करिष्यते अपि च एव। इयं भवदीया विवशता, पुनः विवशतायाः लाभम् कः न गृह्णाति इति कथयित्वा सः अग्रे प्रस्थितः इति। साधुः स्वप्रकृतेस्त्यागम् कुरुते न कदाचन, एतद् वैवश्यस्तस्य लाभम् गृह्णाति को नहि। अर्थात् सज्जन अपनी प्रकृति का त्याग नहीं करता है और उसका विवशता से लाभ कौन नहीं लेता है।
साधु, सुमधुरम् प्रस्तवनम्। अधुना संस्कृत भाषा ज्ञानं विना संस्कृते निगूढं तत्त्वं नैवाधिगन्तुं शक्यते इति कारणात् कैश्चिद् अनुवाद वाक्यैः भाषां शिक्षयति अस्माकं सहयोगी ललित मोहन तिवारी।
प्रथमं वाक्यम् अस्ति, मातृदिवसः मातुः सम्मानस्य विशेषः दिवसः अस्ति। मातृदिवस माँ के सम्मान का विशेष दिन है। ओडिया भाषा में मातृदिवस माँ का सम्मानर विशेष दिन अटे। द्वितीयं वाक्यम् अस्ति, अस्माकं जीवनस्य प्रथम गुरुः माता भवति। हमारे जीवन की प्रथम गुरु माता होती है। ओडिया भाषा में माम आम जीवनर प्रथम गुरु होइथान्ति। तृतीयं वाक्यम् अस्ति, माता स्नेहेन पुत्रान् पालनं करोति। माँ प्रेम से बच्चों का पालन करती है। ओडिया भाषा में माम स्नेहरे शिशु मानांकु पालन करन्ति। चतुर्थम वाक्यम अस्ति, मातृदिवसे वयम मातरम धन्यवादम वदामः। मातृदिवस पर हम माँ को धन्यवाद कहते हैं। उड़िया भाषा में मातृदिवस अरे आमे मांकु धन्यवाद कहुछु। पंचमम वाक्यम अस्ति, माता सर्वदा अस्मान रक्षति मार्गदर्शनम च करोति। माँ सदैव हमारी रक्षा और मार्गदर्शन करती है। उड़िया भाषा में माम सदा आमकु रक्षाउ मार्गदर्शन करंती।
अहो, सत्यमेव उक्तम खलु, पृथिव्यां पुत्रास्ते जननी बहवः सन्ति सरलाः, परं तेषां मध्ये विरलतरलोऽहं तव सुतः। मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे, कुपुत्रो जायेत क्वचिदपि कुमाता न भवति। धन्यवादाः पण्डितप्रवराय। मे प्रियाः सखायः, कार्यक्रमम् अनुवर्त्यमानाः वयं चरम सन्दर्भे सम्प्राप्नुम। भवतां समेषां कृते अहं निधिः झाः पुनरपि कार्तज्ञ सुमनसः प्रकटयन्ति। प्रत्यग्रेण समुल्लासेन पुनः सप्तवासरोत्तरं मेलनं भवितेति प्रतिजानति विरामं प्रार्थये। जयतु संस्कृतं, जयतु भारतम्।